गुरुरेव गतिः गुरुमेव भजे गुरुनैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिः गुरुमेव भजे गुरुनैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम् अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीं नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। प्रथमतः ये श्लोकाः समाप्ताः तान् एकवारं पठामः। धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय। सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकम् व्यूढं दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं च मूं व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता अत्र शूरा महेश्वासा भीमार्जुनसमायुधि युयुधानो विराटश्च द्रुपदश्च महारथः धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः अस्माकं तु विशिष्टाये तान् निबोधद्विजोत्तमा नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च। एतावत्पर्यन्तम् अस्माभिः दृष्टमस्ति तत्र भगवान् श्रीकृष्णावतारे स्वयमेव अतीव सेवकभावेन मित्रभावेन अनुचरभावेन रूपं स्वीकृत्य अन्यान् सर्वान् उपकारं कृतवान्। तदेव कृष्णावतारस्य वैशिष्ट्यम्। अन्य अवतारेषु सः भगवान् सः राजा सः मर्यादापुरुषोत्तमः इत्यादिरीत्या सः अतीव उन्नतस्थाने स्थित्वा स्वभक्तान् सः रक्षितवान् अनुग्रहं कृतवान्। परं कृष्णावतारे सारथिरूपेण मित्ररूपेण सेवकरूपेण सह यदा यदा आपत्कालः आगच्छति तदा तदा पाण्डुपुत्राणां रक्षणं कृतवान् स्वभक्तानाम् अनुग्रहमपि कृतवान् एवं धर्मक्षेत्रे कुरुक्षेत्रे वयं सर्वे इदानीं स्मः तत्र यदि वयं पश्यामश्चेत् कृष्णस्य उपदेशः सर्वदा पालनीयः कृष्णस्य चरितं तावत् लालनीयः अनुभोक्तव्यः कृष्णस्य कृष्णावतारकथां श्रोतव्यः परं कृष्णस्य उपदेशं यदस्ति तत् सर्वदा सर्वथा सर्वत्र अस्माभिः पालनीयः एवं कृष्णस्य चरितं स्वीकुर्मश्चेत् तत्र तस्य उपदेशः एव अतीव प्रयोजनकारी तस्य उपदेशः अतीव क्षेमाय भवति इन् द कृष्णावतार कृष्णा हेस् आल्वेस् हेल्प्ड् हिस् डिवोटीस् बै कीपिङ्ग् हिम्सेल्फ् इन् अ वेरि लोयर् फार्म् एण्ड् देन् हेल्पिङ्ग् हिस् डिवोटीस् मेकिङ्ग् हिस् डिवोटीस् स्टे आल्वेस् अबौ हिम् and we also saw that Krishna's upadesha has to be followed and Rama's charita has to be followed. This is a popular saying which we all know about it. On this day, a great day, again today is a Gita Jayanti day. Again there were some questions which people had mailed me asking Gita Jayanti can be on the Vaikuntha Ekadashi day. Yeah, that is also possible. Basically, Margashira Masa or the Kartika Masa, both the Masas can be celebrated, wherein the Ekadashi, which is there, the 11th day, which is there, has been celebrated. It is a Margashira Masa has been celebrated, Ekadashi has been, Shukla Paksha Ekadashi has been celebrated as Gita Jayanti. Sometimes the Kartika Masa, some people do follow the Kartika Masa, Shukla Paksha Ekadashi also as Gita Jayanti. So, both are equally allowed. So this is the day when, like we saw in the first class itself, 10 days of war has been done and Bhishma is lying down. So on the 11th day, when Arjuna goes into the center of the battlefield and sees it, he gets the Vishada, Arjuna Vishada Yoga Bhavishyati, Tadanantaram Shri Krishna Ashtadasha Adhyayeshu Gita Gitopadesham Karoti. सर्वेषां भक्तानां क्षेमाय अनुग्रहं करोति सो ऑलवेज वी शुड रिमेंबर द सेक्रेड सेइंग्स ऑफ श्री कृष्णा वेरिन ही हिमसेल्फ हैज प्रॉमिस्ड योगक्षेमं वहाम्यहम् अ वेरी वेरी इंस्पायरिंग स्टोरी इज देयर फॉर दिस योगक्षेमं वहाम्यहम् देयर वाज वंस अ ब्राह्मण इन द सिटी ऑफ वाराणसी He was a very great devotee of Srimad Bhagavad Gita. He used to chant the Bhagavad Gita, all the 700 shlokas on a daily basis. Every day he used to chant these shlokas and was a great Krishna Bhakta. But his family was in deep poverty and he did not have much to sustain his living. Basically, he was again a Brahmin who was following the Shatkarmani, which we saw in the last class also. Adhyenam, Adhyapanam, Yajanam, Yajanam, Danam, Pratigrahah. So whatever comes through chance, whatever comes to him only, he would always accept. He did not go in search of money, being a true Brahmin. So Yadrichya Labha Santushtah was the characteristics which we see. We will see ahead, which is also one of the examples or qualities a Bhakta should always have. Yadrucha Labha Santushtah Dvandva Tito Vimatsarah. So we will see that. So he was a true Bhakta of the Bhagavad Gita. As his poverty kept on increasing and there were a lot of troubles in his family, one day, like all other human beings, he also got a little bit worried. And then what he did was, while he was reading this shloka, Ananyas Chintayanto Mam Yejanav Paryupasate Tesham Nityabhiyuktanam Yoga Kshemam Vahamyaham. He was reading this shloka And then he was he again read the shloka, which was a promise made by Krishna, saying that Yoga Kshemam Vahamyaham. I take the responsibility of ensuring the yoga and kshema of all the people who are my bhaktas. Our Brahmin friend, he became very, very worried, and he was in a state of confusion, deluded state. And at that time, he saw this word, Yoga Kshemam Vahamyaham. He took a small knife, it was in the manuscript form, and he struck the word, Yoga Kshemam Vahamyaham. He made a cross across that word, Yoga Kshemam Vahamyaham, and tried to delete that word. Then what he did, he finished the day's Parayanam, he just kept the book there. And he went to take bath in the river Ganga. When once he goes to Ganga, what happens is he goes to take bath. Then the wife and the children are there at home. Then one sevaka who is there, he comes with a truck load of lot of provisions, a few gold ornaments, money, and everything. He brings everything, and he gives it to the Brahmin's wife, saying, long before, a few years ago, I had taken a lot of loan from your husband. I am an person who is indebted to him, so please give this all to him. And he says that. Once he says that, and he gives all the provisions, utensils, ornaments and all, and while he is leaving, the Brahmin's wife notices that there is a very big wound on the back of that person, that sevaka who had come. There is blood coming from the back of that person, which is caused by a wound actually. Immediately, the wife asks, what is this wound? And he says, no, somebody just misunderstood me, and they just made some hurt to me. So this is that wound which is caused by that, and it will go off in some time. And he goes away. The Brahmin comes back after his bath, and she tells them the entire story and also the wound. Suddenly, our friend, he starts crying very, very profusely. Tears roll down his cheeks, and he feels so bad that he had done that. He realizes what mistake he had done. That shloka of Bhagavad Gita, Yoga Kshemam Vahamyaham. And based on that shloka itself, Krishna himself had come on that day, and the strike what he had done on that Yoga Kshemam Vahamyaham, that knife scratch which he had done in that book, was evident on the back of Krishna, and Krishna was bleeding, and that was the wound which was caused. So thus every pada, every word of the Bhagavad Gita is a promise, and it is Pratyaksha Krishna Evahi is the form in which we should always understand. And that is how Shri Krishna protected the Brahmin and also kept his promise of Yoga Kshemam Vahamyaham. With this small inspirational story and with this promise made by Shri Krishna, let us on this Gita Mahatmyam Gita Jayanti Day, let us try to understand the various shlokas which we have been trying to see the shlokartha of the Bhagavad Gita and try to understand it in a better way. We have listed down the various benefits of reading the different chapters of Bhagavad Gita. Each chapter, once we finish the chapter also, we will see what is the phalashruti of reading that chapter, the phalashruti of chanting it, of mananam, adhyayanam of that chapter. We'll see that. Also, we will see Puranokta Ritya, who are the people who have been benefited through reading this Bhagavad Gita. Lot of people were asking the methodology, how we should actually go about reading the Bhagavad Gita. So we just thought we'll put a small chart as to how we can read this Bhagavad Gita. Initially, we always start from an interest zone, which is how all of us always we want to know what is there in Bhagavad Gita. There is an interest, we have an asakti, but that interest will not be a long sustaining one until that asakti is transformed to a commitment, to a Shraddha Bhakti mode. So always in any field in our life, we are all interested to do so many things. We are all interested to learn dance, learn music, learn Sanskrit, learn Bhagavad Gita, see lot of places. There is lot of interest which we always get. But what gets finally implemented, what field we become finally successful, interest does not determine that. Commitment is what determines that. So there is always one word which can define success and failure would be the difference between interest and commitment. Interest will help us start, but finally it will take us only to a failure. It will not take us to success. But commitment is what takes us to success in our journey always. So, as we start to the commitment to study the Bhagavad Gita, the two modes initially, the first step would be Shravanam, Patanam. Patanam, Shravanam. So, it is a combination of reading by ourselves, listening to Bhagavad Gita. Reading by ourselves and again listening to Bhagavad Gita. So, the Shravanam, ideally, if it is happening from a teacher, it is more beneficial. It can also happen in a place like ours where we are trying to discuss together as to how we can understand Bhagavad Gita and also improve our Samskrita Jnanam. So, Patanam and Shravanam. Then, over the period, we should always try to do more of Parayanam. Like, today, Kaishika Ekadasi or the next Ekadashi, which is the Vaikuntha Ekadashi. Both these days, we can always take and chant the entire 700 shlokas of the Bhagavad Gita. And also other days, whenever we get time, we can always do a Parayanam. While we are doing this Parayanam, we will also do the Mananam of it. Mananam in Vedantic study terms means to reflect upon the Gita shlokas so that all our samshayas are removed from root. Yataha samshayatma sarvada vinashyati eva. A samshaya, if we have doubts, it will only lead us to destruction. So, removing all the doubts, we should do the Mananam stage. So, the Parayanam and Mananam stage will be the second stage. Later on, the in-depth study, Adhyayanam of Srimad Bhagavad Gita, that should be taken care of. Adhyayanam can again happen through self. First, we do the Adhyayanam. Then, we share, discuss and learn along with friends, sahapathis. We can do the Adhyayanam. Once we have done the Adhyayanam, then it is Nididhyasanam, which is to again start meditating upon those shlokas, contemplating and trying to assimilate in an absolute way the shlokas which are there, the Nididhyasanam. So, as we are going in this mode, then somewhere we also start practicing those shlokas. Once we are meditating and contemplating upon it, every day when we keep on telling, Adveshta sarvabhutanam maitrah karuna evacha, a single vakya like this, when we keep on telling every day on a daily basis, Adveshta sarvabhutanam, we automatically start loving everybody around us. All the living beings, human beings, even dvipadam chatushpadancha tatra asmakam premaha vardhate. Evam abhyasaha automatically comes. That is when he becomes a true yogi and he becomes a realized student of the Bhagavad Gita, and slowly he goes to the seeking of the Bhagavad Gitas. He becomes a mumukshu and goes towards the path of jnana. So this is just a small process for us, wherein we can try to know that just by a single reading or just by a listening Bhagavad Gita may or may not give us the desired fruits. So through a great commitment level, Shraddha Bhakti, Patanam, Shravanam, Parayanam, Mananam, Anantaram Adhyayanam, Nididhyasanam, Anantaram Abhyasaha, the final step, unless we practice the Bhagavad Gita, it will only remain as a spiritual book in our puja rooms. Through this, now let us come to the recap of what we did in the last class. Tatra asmabhihi, tatra ashtama shlokaha drushtaha asti. Bhavan bhishmascha karnascha kripascha samitinjayah ashwatthama vikarnascha saumadattistathaivacha duryodhanah dronacharyam prati sva sainye keke janaha santi keke vishishtaha dhanurdaraha santi tesham samayodharanam namani vadati duryodhanah. We saw the individual stories of each of them. Now come, let us come to the ninth shloka, navama shlokastavate. Sarve anuvadantu prathamataya pada ritya vadamaha anantaram vakya ritya anantaram purna shlokena vadamaha sarve anuvadantu dvivaram anuvadantu anye cha bahavashuraha madarthe tyakta jivitaha nana shastra praharanaha sarve yuddha visharadaha idanim purna vakyam vadamah anye cha bahavashuraha madarthe tyakta jivitaha नाना शस्त्र प्रहरणाः सर्वे युद्ध विशारदाः अन्ये च बहवः शूरा मदर्थे त्यक्त जीविताः नाना शस्त्र प्रहरणाः सर्वे युद्ध विशारदाः आंग्लभाषायाम् अस्ति केचन अस्माकं सहपाठिनां कृते रेफरेन्स् तावत् नवमश्लोकः सप्तचत्वारिंशत् श्लोकाः सन्ति प्रथमाध्याये तस्मिन् मध्ये अयं तावत् नवमश्लोकः पदच्छेदः एवं वर्तते अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः अतीव सरलरीत्या अस्ति इदानीम् अन्वयार्थं कृते गच्छामः तत्र यथावत् कर्तृपदं कर्मपदं क्रियापदं किञ्चित् अन्वेषणं कुर्वन्तु क्रियापदम् क्रियापदं तत्र ऐडेण्टिफै कर्तुं शक्यते वा कर्तृपदम् क्रियापदम् अस्ति वा सन्ति सम्यगस्ति सन्ति इति उत्तरं प्राप्तं सम्यगस्ति कर्तृशूराः शूराः अस्ति परं तत्र पश्यामः कर्तृपदं शूराः समीचीनं समीचीनं कर्तृपदं तावत् शूराः एवं सरलरीत्या पश्यामश्चेत् वाक्यं तावत् अतीव सरलमस्ति शूराः सन्ति तावदेव अस्मिन् श्लोके अन्यत् किमपि नास्ति तत्र केवलं शूराः सन्ति कीदृशशूराः मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः युद्धविशारदाः शूराः कति जनाः सन्ति बहवः सन्ति तावदेव अस्मिन् श्लोके अस्ति अतीव सरलरीत्या अस्ति एवं सम्यक् इदानीं पदपदार्थं पश्यामः अन्ये बहवः शूराः कीदृशाः ते सर्वे मदर्थे त्यक्तजीविताः पुनः कीदृशाः नानाशस्त्रप्रहरणाः पुनः कीदृशाः सर्वे युद्धविशारदाः मम सैन्ये सन्ति एवं तत्र पदपदार्थं पश्यामश्चेत् अन्ये इतरे अन्यजनाः इतरजनाः के इति अग्रे पश्यामः उपर्युक्तश्लोकानाम् उपर्युक्तश्लोके ये उक्ताः सन्ति तान् अतिक्रम्य तान् व्यतिरिक्त्वा अन्ये सर्वे ये सन्ति ते सर्वे इति अर्थः एवम् इतरे बहवः न तु एके नैके जनाः नैके शूराः सन्ति शूराः विक्रमिणः ये धीराः शूराः योद्धारः ये सन्ति ते सर्वे विक्रमिणः जनाः विक्रमिणः योद्धारः मदर्थे एवं तत्र मदर्थे इति उपयोगः कृतः पूर्वस्यां कक्षायामेव एकवारं तत्र अस्य रेफरेन्स् कृतमस्ति मदर्थे इति तत्र अहङ्कारद्योतकः पदः अस्ति अग्रे पश्यामः विशेषटिप्पण्यां मदर्थे मम कृते फार् मै सेक् मम कृते त्यक्तजीविताः ये तेषां जीवनम् असून् त्यक्तुं सन्नद्धाः सन्ति ये अतीव सिद्धाः सन्ति तेषां प्राणानपि मदर्थे त्यागं कर्तुं सिद्धाः सन्ति तादृशाः शूराः सन्ति अनन्तरं ये ते शूराः कीदृशाः ते केवलं प्राणान् त्यक्तुं सिद्धाः वा ते किमपि युद्ध विचारान् जानन्ति वा इत्युक्ते नानाशस्त्रप्रहरणाः बहुशस्त्रास्त्रप्रयोगनिपुणाः एते सर्वे ते न केवलं प्राणत्यागं कर्तुं सिद्धाः परं मां रक्षितुमपि ते सर्वे योग्याः इति वदति श्री इति वदति दुर्योधनः द्रोणाचार्यं प्रति एवं नानाशस्त्रप्रहरणाः न तु एकशस्त्रप्रहरणाः नानाशस्त्रप्रहरणाः बहुशस्त्रप्रयोगनिपुणाः एते सर्वे सर्वे सकलाः युद्धविशारदाः एते सर्वे इदानीं प्रथमवारमेव आगतवन्तः वा युद्धार्थं यथा वयं सर्वे कुर्मः युद्धकाले शस्त्राभ्यासं वा युद्धे शस्त्राभ्यासं तादृशाः जनाः वा नैव एते सर्वे युद्धविशारदाः अनेकयुद्धान् ते सर्वे जितवन्तः ते सर्वे तत्र युद्धं कृतवन्तः एते सर्वे युद्धनिपुणाः समरनिपुणाः युद्धविशारदाः सन्ति तादृशाः जनाः मम सैन्ये सन्ति इति दुर्योधनः द्रोणाचार्यं प्रति वदति अन्ये अदर् मेनि मेनि अदर् हीरोस् शूराः हीरोस् ब्रेव् पीपल् मदर्थे सोल्जर्स् हु आर् देर् मदर्थे मम कृते फार् प्योर्लि फार् मै सेक् फार् द सेक् आफ् किङ्ग् दुर्योधन त्यक्तजीविताः हु आर् रेडि टु इवन् लीव् देर् लैफ्स् हु आर् रेडि टु साक्रिफैस् देर् लैफ्स् फार् मै सेक् तादृश शूराः योद्धारः नानाशस्त्रप्रहरणाः हु डु नाट् नो that who are not like they don't know to fight or they don't know any other methods, they are just ready to leave their life, not these kind of people, but who know a multiple weapon handling techniques like the sword, khadga, gada, chapa, musala, ityadi shastrastra praharan nipunaha yete sarve tadrusha janaha sarve yuddha visharadaha who are all very very experienced and skilled इन् युद्धशास्त्र युद्धशास्त्र एण्ड् युद्धविद्या तादृशजनाः सन्ति यदि पदपरिचयं पश्यामश्चेत् अन्यशब्दः सर्वनामशब्दः अकारान्तः पुल्लिङ्गः प्रथमाविभक्ति बहुवचनम् एतत् अन्ये सर्वः सर्वौ सर्वे तादृशमेव अन्ये प्रथमविभक्ति बहुवचनम् एवं यदि तत्र वाक्यं तावत् सरलमस्ति शूराः सन्ति तर्हि सर्वपदानि अपि तादृशमेव भवति आल् वर्ड्स् कनेक्टेड् वर्ड्स् इन् सान्स्क्रिट् लाङ्ग्वेज् विल् आल्वेस् बी इन् द सेम् लिङ्ग विभक्ति वचन दिस् इस् अ गोल्डन् रूल् विच् वी आल्वेस् रिमेम्बर् सो देर् फोर् द कनेक्टेड् वर्ड्स् विल् आल्वेस् बी इन् नौ वी केन् सी दट् इट् विल् बी इन् पुल्लिङ्ग प्रथमाविभक्ति बहुवचनम् लिङ्ग विभक्ति वचनम् विल् बी सेम् फार् आल् द कनेक्टेड् वर्ड्स् एवं शूराः विल् बी द मेन् कर्तृपदम् सो द कनेक्टेड् वर्ड्स् इफ् यु सी अन्ये बहवः जस्ट् अन् उकारान्त बट् स्टिल् पुल्लिङ्ग प्रथमा बहुवचनम् शूराः अकारान्तः पुल्लिङ्ग प्रथमा बहुवचनम् त्यक्तजीविताः अकारान्तः पुल्लिङ्ग प्रथमा बहुवचनम् नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ओन्लि मदर्थे इस् एन् अव्ययम् मदर्थे इस् एन् अव्ययम् हौ इट् इस् एन् अव्ययम् विल् सी इन् द ग्रमाटिकल् पोर्शन् वेरि वेरि सिम्पल् श्लोक हेन्स् वी केन् गो इन् अ लिटल् बिट् हैयर् पेस् एवम् अर्थं पश्यामश्चेत् नानाशस्त्रनिपुणाः शस्त्रास्त्रप्रयोगनिपुणाः शूराः धीराः सर्वे युद्धनिपुणाः समरनिपुणाः ये सन्ति अन्ये सर्वे बहुजनाः अपि मदर्थे त्यक्तजीविताः मदर्थे प्राणान् त्यक्तुं सन्नद्धाः सर्वे योद्धारः अस्मिन् कुरुक्षेत्रे अस्माकं सैन्ये सन्ति इति दुर्योधनः द्रोणाचार्यं प्रति वदति. इन् द प्रीवियस् श्लोका ही टोल्ड् द नेम्स् आफ् द ग्रेट् महारथीस् द्रोणाचार्य, भीष्माचार्य, कर्ण, कृपाचार्य, अश्वत्थाम, विकर्ण एण्ड् अदर्स्. नौ ही टेल्स् दीस् आर् ओन्ली अ फ्यू एक्साम्पल्स्, देर् आर् मेनि 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 मोर् पीपल् हू आर् रेडि टु साक्रिफैस् एण्ड् हू आर् रेडि टु फैट् फार् मी. सो हे द्रोणाचार्य, कैण्ड्ली यूटिलैज् देम् इन् अ करेक्ट् फार्मेशन् एण्ड् प्लीस् मेक् यूस् आफ् दीस् पीपल् इस् वाट् ही इस् ट्रैङ्ग् टु टेल्. तत्र व्याकरणभागं पश्यामश्चेत् शूरा मदर्थे अस्ति, अतीव सरलः विसर्गलोपसन्धिः. तत्र शूराः मदर्थे इत्यस्ति. केचन पुस्तकेषु नानाशस्त्रप्रहरणा सर्वे इत्यपि अस्ति, तर्हि चेत् नानाशस्त्रप्रहरणास्सर्वे विसर्गसकारादेशः भवति. प्रहरणास्सर्वे इत्यस्ति चेत् विसर्गसकारादेशः केचन पुस्तकेषु सन्ति. तत्र समासपदं समासं पश्यामश्चेत् त्यक्तजीविताः, त्यागः इति अस्ति साक्रिफैस्, जीवितम् अस्ति तत्र लैफ् परम्. एतद् अस्य पदस्य अर्थः न तावत् त्यागः, न तावत् जीवनम्, अर्थस्तावत् ये जनाः त्यागं कर्तुं सन्नद्धाः ते त्यक्तजीविताः. एवं न तु पूर्वपदस्यार्थः, न तु उत्तरपदस्यार्थः, परम् अन्यपदस्यार्थः प्रधानः अस्ति. एवं बहुव्रीहि समासः, बोथ् द स्पेसिफिक् वर्ड्स् इन् द इन् द इन् द समस्तपद आर् नाट् इम्पार्टेण्ट्, द मीनिङ्ग् इस् नाट् इम्पार्टेण्ट्. इट् इस् अ थर्ड् मीनिङ्ग् विच् इस् द वर्ड् आफ् द विच् इस् मोर् इम्पार्टेण्ट्, देर् फोर् इट् इस् बहुव्रीहि समासः. त्यक्तं जीवितं यैः ते त्यक्तजीविताः. एवं त्यक्तम् इत्यपि अस्ति, त्यक्तं केन् आल्सो बि फर्दर् टेकन् एस् त्यागं कर्तुं सिद्धाः यैः ते त्यक्तजीविताः इत्यपि स्वीकर्तुं शक्यते. सो इट् इस् अ काम्बिनेशन् आफ् आल् द टेन् डेस् आफ् वार् हेस् हेपन्. लाट् आफ् पीपल् हेव् आल्सो साक्रिफैस् देर् लैव्स्. देर् आर् अदर् पीपल् हू आर् रेडि टु साक्रिफैस् देर् लैव्स् आल्सो. सो ही इस् टाकिङ्ग् अबौट् बोथ् द पीपल्. नानाशस्त्रप्रहरणाः, नानाविधानि शस्त्राणि, नानाशस्त्राणि, मेनि टैप्स् आफ् शस्त्रास् केन् बि टेकन् एस् मध्यपदलोपी कर्म तत्पुर मध्यपदलोपी कर्मधारय तत्पुरुषसमास. कर्मधारयोपि तत्पुरुषस्य प्रभेदः एव. एवं मध्यपदलोपी कर्मधारयः. नानाशस्त्राणि प्रहरणानि येषां ते नानाशस्त्रप्रहरणाः. अगेन् वि आर् नाट् टाकिङ्ग् अबौट् नानाशस्त्र आर् वि आर् नाट् टाकिङ्ग् अबौट् प्रहरणं विच् इस् थ्रोयिङ्ग् अक्रास्. वि आर् टाकिङ्ग् अबौट् दोस् पीपल् हू आर् केपबल् आफ् प्रयोग आफ् मेनि शस्त्रास्. एवम् अगेन् दर् इस् अ बहुव्रीहि समास. नानाशस्त्रप्रहरणानि ये शास्त्राणि प्रहरणानि येषां ते नानाशस्त्रप्रहरणाः. युद्धविशारदाः अतीव सरलमस्ति. युद्धनिपुणाः, समरनिपुणाः, युद्धे विशारदाः, समरे निपुणाः. एवं सप्तमी तत्पुरुषसमास, वेरि वेरि सिम्पल्. हू आर् एक्स्पर्ट्स् इन् द वार्, इन् द वार्फेर्. सो इन् द वार्फेर् युद्धे सप्तमी भक्ति. एवं सप्तमी तत्पुरुषसमासः. मदर्थे मम कृते, ममार्थे मदर्थे, मम कृते मत्कृते. एवं समस्तपदं तावत् विग्रहवाक्यं तावत् पश्यामश्चेत् मम अर्थे मदर्थे, इट् इस् षष्ठीतत्पुरुषसमास. अगेन् अर्थे अण्ड् कृते आर् टु शब्दास् विच् आर् जनरली यूस्ड् अस् तादर्थे इन् दट् इन् द इन् द मीनिङ्ग् आफ् दट् ओन्ली. एवं द संज्ञा विल् बि गिवन् एस् द एन् अव्ययसंज्ञा. मत्कृते आर् मम मदर्थे बोत् विल् बि आफ् द सेम् फार्म्. बोत् सिन्स् दे एण्ड् इन् द वर्ड्स् अर्थे अण्ड् कृते विच् हाव् द अव्ययसंज्ञा, देर् फोर् मदर्थे तदन्तत्वात् अयमपि शब्दः अव्ययमेव भवति. सो बोत् द वर्ड्स् मदर्थे आर् मत्कृते बिकास् आफ् द एण्डिङ्ग् वित् द शब्दास् अर्थे अण्ड् कृते विल् बिकम् अव्ययास्. तवार्थे तव कृते, मम कृते तस्य कृते. एवम् आल् दीस् बिकास् आफ् द अर्थे अण्ड् कृते meaning for, giving the meaning of for, they will become avyaya shabdas because of the arthe and krite samgyas. Evam madarthe shabdah avyaya shabdah. Agre yadi vayam pashyamas chete vishesha tippani पूर्वमेव दृष्टमस्माभिः मदर्थे डिनोट्स द अहंकार ऑफ दुर्योधन सो वी ऑलरेडी सॉ दैट इन केस भीष्मा हैड डिसाइडेड नॉट टू गो बाय द राजधर्म ऑफ फाइटिंग फॉर हिज किंग देन इट विल बी अ ग्रेट डाउट एज टू हाउ मेनी पीपल वुड हैव एक्चुअली जॉइंड द सैन्य ऑफ कौरव सैन्य सो मदर्थे अस्माभिः दृष्टः अन्ये द वर्ड अन्ये वेन वी सॉ देर आर अ फ्यू पीपल हू ही मेन्शन्स एक्चुअली लेटर ऑन इन द उद्योग पर्व एंड अदर प्लेसेस सो दीज अन्ये एक्चुअली रेफर टू शल्यः शल्य एंड भगदत्तः कृतवर्मा जयद्रथः बाल्हिकः इत्यादयः सर्वे युद्ध विशारदाः सर्वे महारथ सम योद्धारः हू आल आर इन द कैडर ऑफ महारथीस most of them are atirathi maharathi and people who can take care of an entire akshohini by themselves these kind of people are there hence the word anye signifies many of these shuras veeras and dheeras evam navama shlokah asmabhi drishtah ekavaram navama shlokam uktva anantaram dashama shlokartham gachhamah अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः अग्रिमश्लोकः अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् पुनः एकवारं अनुवदन्तु अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् पुनः एकवारं श्लोकं पठन्तु the shlokas which are there are quite simple actually in the first chapter hence we are going in a little bit faster pace please let us know if we have to reduce the pace or if there is some more explanation needed in some of these parts so we will try to go at an easy pace wherein all of us are able to go along together in this journey तत्र पदच्छेद आङ्ग्लभाषायामस्ति रेफरेन्स् तावत् दशमश्लोकः सप्तचत्वारिंशत् श्लोकेषु दशमश्लोकः औट् आफ् द 47 श्लोकास् द 10th श्लोक आफ् द फस्ट् चाप्टर् आफ् भगवद्गीता कण्टेनिङ्ग् 700 श्लोकास् पदच्छेदः अपर्याप्तं तत् अस्माकं बलं भीष्माभिरक्षितं पर्याप्तं त्विदमेतेषाम् इस् एन् इण्ट्रेस्टिङ्ग् वर्ड् फार् सन्धि तु इदम् एतेषां बलं भीमाभिरक्षितम् वैल् वि आर् टेलिङ्ग् द श्लोकास् इट्सेल्फ् ट्रै टु मेण्टलि फ्रेम् द पदच्छेदः सो देट् वि केन् आल्वेस् चेक् इन् दिस् स्क्रीन् वेदर् वाट् वि हव् डन् द पदच्छेद इस् मेचिङ्ग् वित् दट् सो एस् वि लर्न् अलाङ्ग् इट् इस् ईज़ी टु गो अट् अ लिटल् बिट् हैयर् पेस् अग्रे गच्छामः तत्र यदि वयं तत्र अन्वयार्थं पश्यामश्चेत् अगेन् वाट् वुड् बी द कर्तृपदं कर्मपदं क्रियापदम् ओके विल् स्टार्ट् वित् अ क्रियापदं सरलमस्ति क्रियापदम् इस् वेरि सिम्पल् क्रियापदं वुड् बि Okay. Think of the Kartrupadam and Karmapadam. Asti is very correct. Very good. Kriyapadam is Asti. How many sentences are there? Correct. Asti, Samyagasti. How many sentences are there? Can we form? How many sentences we can form here? Two sentences. Very good. What will be the Kartrupadam? Kartrupadam and Karmapadam. Kartrupadam, Balam. Very good. Common in both the sentences. Karmapadam is opposites in both the sentences. That's all. Karmapadam kim bhavati prathama vakye? Aparyaptam. Tavadeva. Samyagasti. First sentence, very very simple sentence. Balam aparyaptam asti. Second sentence, balam paryaptam asti. Kidrisham balam, kesham balam, kasya balam, evam pashyamaschet, vakyam tavat, arthavagamanam, ativa sarala ritya bhavati. So there are only two sentences here. Both are very very simple. Balam ityukte sainyam iti arthahatra. Balam, sainyam, aparyaptam asti. Only thing is, kesham balam, asmakam balam, kidrisham tavat tad balam, bhishmabhirakshitam balam, aparyaptam asti. Anyesham, tesham, tatra pandavanam balam kathamasti, pandavanam balam tavat paryaptamasti, kena rakshitam, bhima abhi rakshitamasti. Tavadeva, ativa saralashlokaha, evam pashyamaha. Asmakam, asmakam ityukte, idanim tatra vakyam tavat duryodhanaha vadati, evam asmakam ityukte, kauravanam balam sainyam edasti, kena rakshitamatra, bhishma abhi rakshitam, bhishmacharyena rakshitam, balam yadasti, tat balam, tat sainyam, aparyaptam asti. Tatra ativa vistritam, vistritam ativa mahadasti sainyam tavat asmakam sainyam. Yete sham tu, yadi vayam pashyamaschet, yete sham pandavanam, tatra panduputranam sainyam yadasti, kena rakshitam, bhimena rakshitam sainyam, idam balam paryaptam asti. Kevalam, ganana yutam asti, tatra gananam kartum shakyate, tadrisham paryaptam asti, tesham sainyam. Hevam anvayartham asmabhi drishtamasti, asmakam kauravanam, bhishmabhirakshitam, bhishmena samrakshitam, tat sainyam balam, aparyaptam asti, vistritam asti, ativa mahadasti, yetesham panduputranam, bhimena rakshitam tavat sainyam yadasti, tat kevalam paryaptamasti, kinchid nyunam eva asti, iti sahavadati. English meaning, our army which is there, which is being defended by Sri Bhishmacharya, is unlimited in its numbers and powers. Their sainya, army, which is being defended by Bhima, is very much limited. It is easily countable, and also their shakti or the quality of the army is also very much limited. Paryaptam and aparyaptam can be taken both in the quantitative numbers and also in the qualitative sense also. Evam padaparichaya pashyamaschet asmakam asmat shabdah dakaranta trilingakah asmat shabdah sarvalingeshu samana shabdah evam shashti bhakti bahuvachanam asmakam. Bhishmabhirakshitam evam napumsakalinga prathamayekavachanam balam napumsakalinga prathamayekavachanam tat napumsakalinga prathamayekavachanam evam connected words. Bhishmabhirakshitam tat balam aparyaptam kevalam visheshana shabdaha santi visheshanam. Therefore whatever visheshasya yallingam yadvachanam yachvibhaktihi tallingam tadvachanam sachvibhaktihi visheshanasyapi visheshasyapi evam connected words will be together. So, we have seen this. Padaparichaya also is getting more easier for us now, so that we will be able to concentrate on more shlokas. Yetesham yadivayam pashyamaschete, tavadevasti. Yetesham panduputranam bhishmabhirakshitam idam balam paryaptam asti. So, bhishmabhirakshitam idam balam paryaptam, four connected words, all are in napumsakalinga, prathamabhakti, ekavachanam, and panduputranam. Whose army? Panduputranam. Army of Pandavas. Of Pandavas asti. Shashti bhakti asti evam. तत्र एतद् शब्दः तत् सर्वनामशब्दः दकारान्तः पुल्लिङ्गः एतेषां तु तावत् अव्ययमस्ति अत्र एतेषां तु अगेन् तु केन् बि एस् अ पादपूरण आल्सो केन् बि यूस्ड् इन् द सेन्स् आफ् डिमीनिङ्ग् देर् लैक् इट् इस् यूस्ड् इन् द सेन्स् आफ् पुटिङ्ग् डौन् द अदर् सैन्य अस्माकं तावत् बलं तत्र अपर्याप्तमस्ति एतेषां तु बलं पर्याप्तमेव इति तत्र तु is again not a pure padapurana it is trying to put down on the powers of the pandava army so this is what is there yadi vayam tatra artham pashyamaschete asmakam bhishmena abhirakshitam sainyam yadasti tat aparyaptam vistrutam ativa mahadasti param yat bhimena abhirakshitam pandavanam sainyam asti tat paryaptam eva asti tat nyunam eva asti tat na mahadasti so this our army which is being defended by Bhishma is impossible to be counted it is very very vast their pandava's army is very very easy to count and look for numbers yadi vayam tatra vyakarana bhagam pashyamaschete ativa saralamasti etadapi aparyaptam tadasmakam tatra aparyaptam tatra makarasya lopah bhavati evam makarasya anuswaratvena tatra parivartanam bhavati evam anuswara sandhi तदस्माकं यदस्ति तत् अस्माकं तदस्माकं फस्ट् लेटर् आफ् द वर्ग रीप्लेस्ड् बै द थर्ड् लेटर् आफ् द वर्ग तवर्गस्य तृतीयाक्षरम् आदेशः भवति तृतीयाक्षरः आदेशः भवति तत् अस्माकं तदस्माकं जष्ट्वसन्धिः तदस्माकं बलम् अगेन् तदस्माकं प्लस् बलं तत्र मकारः भवेत् शुड् बि तदस्माकं द फस्ट् वर्ड् स्प्लिट् शुड् हेव् अ म वित् द स्ट्रोक् इट् इस् प्रिण्टेड् राङ्ग्ली एस् अनुस्वार apologies for that tadasmakam plus balam tadasmakam balam anuswara sandhi balam bhishma abhirakshitam evameva balam plus bhishma abhirakshitam anuswara sandhi yadi avashyam chet bhishma plus abhirakshitam bhima plus abhirakshitam savarna savarna dirgha sandhi api kartum shakyate we can also do the savarna dirgha sandhi on both of these bhishma abhirakshitam and bhima abhirakshitam twidame tesham we have some more sandhi here twidame tesham त्विदं तु प्लस् इदं यण् सन्धिः इकार उकार इ उ ऋ लृ आर् दीस् फोर् वेन् दे आर् जायिण्ड् वित् असवर्णस्वर वि गेट् द फैनल् रिसल्टिङ्ग् शब्दास् लेटर्स् यवरल क्रमशः आदेशाः भवन्ति इ उ ऋ लृ स्थाने असवर्णस्वरे परे क्रमशः यवरल आदेशाः भवन्ति एतदेव इको यणचि इति सूत्रेण आधारित यण्सन्धिः सो वेन् वि सी दट् उ बिकम्स् वा आल्वेस् इ बिकम्स् या उ बिकम्स् वा तु प्लस् इदं त्विदं भवति पर्याप्तं प्लस् त्विदं पर्याप्तं त्विदम् अनुस्वारसन्धि एतेषां बलम् अनुस्वारसन्धि वाट् विल् बि द अपर्याप्तं नाट् इनफ् वि विल् कम् टु दट् आल्सो देर् इस् अ अर्थव्यत्यास देर् इस् अ क्वशन् विच् इस् बीङ्ग् आस्ड् बै anu madam so we will just come to that also meanwhile twidam plus etesham twidam etesham what sandhi will that be can anybody tell us twidam plus etesham paryaptam twidam etesham asti kila tatra sandhi kah it is not here anyways त्विदं प्लस् एतेषां त्विदमेतेषां वट् इस् द सन्धि देर् यण् सन्धि नाट् करेक्ट् ऐ एम् आस्किङ्ग् फार् द सेकेण्ड् पार्ट् नाट् द फस्ट् पार्ट् तु प्लस् इदम् इस् यण् सन्धि करेक्ट् त्विदं प्लस् एतेषाम् इफ् ऐ डु त्विदमेतेषां यण् वुड् नाट् बि द रैट् आन्सर् any answers twidam plus etesham samyogah eva very good correct tatra there is no sandhi actually in that it is only a varna vyanjana plus a joining of vyanjana varnam plus swara mu plus a will become only me, there is no sandhi. Okay, we should always be aware of those also where sandhi does not take place, varna formation. Very very correct, good, all of you told correctly, very good. Paryaptam tvidam etesham balam abhavat balam bhima birakshitam samyagasti anuswara sandhi reva. Agre gachhamaschet samasabhage pashyamaschet, again simple samasas, no complicated samasas here, all are tatpursha only. Aparyaptam, na paryaptam, aparyaptam, naitat purusha samasaha, always gives us all the opposites. Only two forms are there, a and an gets added. If there are any swaras, we will get an, which are the starting of the pada. If it is a swara, then an gets adesha. If it's a vyanjana, a gets adesha before. That is generally a forms of naitat purusha. Example, na satyam, asatyam. N adaraha, anadaraha it becomes. It doesn't become adirga adaraha, it is becomes anadaraha. So two forms, an and a will come, and they will always denote the negativism, that is the opposites. Evam, nai tatpurusha samasaha, aparyaptam. Bhishma abhirakshitam, bhishmena abhirakshitam, bhimena abhirakshitam, tritiya tatpurusha. Very very sarala, easy to understand. Protected by bhishma, by bhima. When bhai is used, tritiya vakti used, evam tritiya tatpurusha samasah. Kridantah, again paryaptam, if we see, aptam, pari upasarga purvaka, ap dhatoho, tap pratyah adesha bhavati, evam paryaptam. Evam agre gachhamaschete, there was some interesting question which was asked on aparyaptam, which is the third tippani which we have today here. Aparyaptam is generally used in both the words. A few books only have given the meaning of insufficient. Aparyaptam can always be taken in the other meaning of not being enough also. Yetat paryaptam asti. Paryaptam, when we are being served any food, we always tell paryaptam asti. Paryaptam, paryaptam. Kinchit vyanjanam pariveshayamiva, naiva naiva paryaptam asti. We always tell it is sufficient. That is also used. But there, the commentators, Bhashyakaras have given the word, meaning that Duryodhana was still afraid, and he used it in that sense. Is very very few Bhashyakaras have given that commentary, but the generally accepted word aparyaptam and paryaptam have been taken in the word of aparyaptam meaning unlimited, and paryaptam being limited only, because at this point he is already told about all the great people, the warriors, and now he has got that confidence. And always when we see the 11 Akshohinis which they have and the 7 Akshohinis of Pandavas, then we see that the meaning of the word aparyaptam can only be taken as unlimited. Again, for this reference only, we went to Udyoga Parva and other Bhishma Parva, where in Udyoga Parva, Duryodhana actually tells to Dhritarashtra, his father, when he asks about the Sainya, he is telling about this, where gunahinam paresham tu bahupashyami bharata gunodayam bahugunam atmanascha vishampate. Our sainya has bahugunam is what he uses. And then again in Bhishma Parva, Duryodhana tells, ekaikashah samarthahi yuyam sarve maharathaha. Individually, each one of you are enough to kill the Pandava army. Panduputran ranehantum sasainyan. Kimu samhataha, then what about if you people are joined together, then you can easily defeat the Pandavas. So going by these other shlokas which have been mentioned in the Mahabharata, when we come to see the bhashya of the word aparyaptam, then unlimited will be a better usage of the word is what we thought. Very very good question asked on whether aparyaptam and paryaptam would mean opposites. Arthavyatyasah asti param yadi bhashyam anya shlokan itara shlokan pashyamaschet, we get this artha. Again, some of the people have asked, generally we always think abhirakshitam would be the commander in chief, because if we see the commander in chief, who was the commander in chief for Pandava army? Anybody can tell the answer? We have already mentioned this in the previous class. Who is the commander-in-chief of Pandava army? Very limited time. Kaurava army, who was the commander-in-chief? We have seen at various dates, various people were there. at least at this day, who's the commander in chief? Okay, I will tell this. Aparyaptam tatra Kauravanam sainyasya commander in chief senadhipati Yudhishthira is not correct, ma'am. For Pandava army, Drishtadyumna was the commander in chief of Pandava army. We have seen that in the previous class, wherein Tavashishena Dhimata Drupadaputrena Vyudham iti. There we saw that Drishtadyumna is the commander in chief of Pandava army, and Kaurava army, Bhishma was the commander in chief, but from the 11th day, Dronacharya took the position of commander in chief. Evam Abhirakshitam here does not mean the Senadhipati, it only means the defenders, the strong defenders of the army. And also, more for a prasa also, we can see that Bhishma Abhirakshitam, Bhima Abhirakshitam. So, for a Vakchaturya, Shabdachaturya, for a Chitrakavya also, it fits in well, and therefore, the meaning of defender should be taken and not as commander in chief. So that is the differentiation we should be able to make. So we have already exceeded. So we'll tell the shlokas, today's shlokas and the final shlokas, and conclude for the day. Time permitting, let us all after the class try to chant a few verses, if possible the entire Bhagavad Gita today also, being Gita celebrated as Gita Jayanti by some of us. Kaishika Ekadashi has been celebrated by some of us as Gita Jayanti. Let us try to chant as much shlokas as Gita and try to practice as much shlokas of Bhagavad Gita. Anye cha bahava shura madarthe tyakta jivitaha nana shastra praharanaha sarve yuddhavisharadaha aparyaptam tadasmakam balam bhishmabhirakshitam पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितं यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. आगामी कक्षा अष्टम. ओके, वी विल सेंड द लेक्चर रिकॉर्डिंग्स वेरी सून. देर इज अ स्मॉल प्रॉब्लम इन द साइज ऑफ द रिकॉर्डिंग्स. वी आर ट्राइंग टू सॉल्व दैट थ्रू वेरियस सोर्सेस. Apologies for the delay on that. All the historical aspects, we do agree. We will send the recordings very soon. We will upload them very soon. And Agami Kaksha, Ashtama Dinanke Bhavishyati. On December 8th, that is Thursday, the next class will be there. Request all of us to attend with the same devotion. Be more prepared for the class. And also try to bring more, involve all our family and friends also. And on this Gita Jayanti day, let us wish everybody happy Gita Jayanti day, and let us try to practice the teachings of Gita in our life and become proper human beings. Ram Ram Ram. Dhanyavadaha.